सर्वेभ्य नमस्कारः। अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे चतुर्थः पाठः, एप्रिल् मासस्य त्रिंशः दिनाङ्कः। येनाक्षरसमां नायमधिगम्यमहेश्वरात्मं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य चतुर्थीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। प्रथमाविभक्तिः अधीता, किं किमासीत् प्रथमाविभक्तिप्रकरणे? प्रथमाविभक्तिविधायकानि सूत्राणि कानि? विच् आर् द सूत्रास् विच् माण्डेट् प्रथमाविभक्ति? कति सूत्राणि तानि कानि? How many sutras do we have? Two sutras. Kete sutre. Pratipadikartha linga parimana vachana matre prathama. Ekam sutram. Sambodhane cha. Iti aparam sutram. Astu. प्रथमाविभक्तेः निमित्तानि कानि? सोदाहरणम्, वाट् आर् द डिफरेण्ट् केसेस् वेर् वि गेट् प्रथमाविभक्ति? सेवन् एक्साम्पल् इच्। एव्रिबडि शुड् प्लीस् ट्रै टु पार्टिसिपेट् एस् मच् एस् पासिबल् इन् द रीकेप् थिङ्ग्। अट् लीस्ट् यु विल् नो इफ् यु हेव् अण्डर्स्टुड् समथिङ्ग् आर् नाट्। If you are more comfortable with telling, you can just send me that and I'll unmute you so that you can speak, or you can put it in chat. Which are the nimittas? How do we get, or what are the senses in which we have prathama vibhakti? कस्मिन् केषु केषु अर्थेषु प्रथमाविभक्तिः भवति? वसुधा, कस्मिन् अर्थे? द्रव्यम् प्रातिपदिका, प्रातिपदिकार्थे, प्रातिपदिकार्थमात्रे प्रथमा इति प्रथमम्। ये अव्ययानि उच्चैः नीचैः इत्यादीनाम् अव्ययानां तथैव नियतलिङ्गानाम्, येषां शब्दानां लिङ्गं नियतम्, नित्यस्त्रीलिङ्गाः पुल्लिङ्गाः नपुंसकाः वा, तेषां प्रातिपदिकार्थमात्रे प्रथमा भवति। अग्रे सत्यम्। लिङ्गाधिक्ये अर्थात् प्रातिपदिकार्थेन सह तत्र प्रथमाविभक्त्या लिङ्गम् अपि भासते। यत्र लिङ्गाधिक्यमस्ति तत्रापि ये अनियतलिङ्गाः अर्थात् द्वयोः लिङ्गयोः त्रिषु लिङ्गेषु वा भवन्ति शब्दाः, तेषां प्रथमाविभक्तिः भवति। प्रथमाविभक्त्या प्रातिपदिकार्थः तत्तल्लिङ्गं च बोध्यते। अग्रे కేవలం यस्य शब्दस्य प्रथमा विभक्तिः भवति तस्य निमित्तं वक्तव्यं सर्वे इत्यत्र केन निमित्तेन प्रथमा विभक्तिः किमर्थं कथं सत्यं किन्तु संख्यामात्रे प्रथमा इति उच्यते यत्र केवलस्य संख्यायाः केवलस्याः संख्यायाः भानमस्ति तत्र वचनमात्रे प्रथमा इति उच्यते एकः इत्यत्र काचित् संख्या भासते सर्वः अथवा सर्वे इत्यत्र तु संख्या नोच्यते किल सर्वे इति बहुवचनं किन्तु रामाः इत्यत्रापि बहुवचनमस्ति किन्तु वचनेन सह प्रातिपदिकार्थः अपि अस्ति तत्र लिङ्गमपि अस्ति अतः किं निमित्तीकृत्य प्रथमा वेर् देर् इस् ओन्ली नम्बर् प्योर् नम्बर् तत्रैव वचनमात्रे प्रथमा इति उच्यते Where there is nothing else. Pratipadikarthaha api sankhya eva, pratyayarthaha api sa eva. Satraiva sankhya matre prathama iti uchyate. Atra tu, sarva shabdasya aparaha api artha asti kila. It does not mean a number. Right? Ataha, sarve ityatra, kena nimittena prathama. What is the nimitta for prathama in sarve? Anybody? बहुवचनं निमित्तत्वेन नास्ति किल यु हेव् लिस्टेड् ओन्लि त्री फोर् निमित्तस् सो यु हेव् टु चूस् अमङ्ग् देम् आम् कोऽपि उदाहरणं सर्वे जनाः सुखिनो भवन्तु अस्तु तत्र सर्वे इत्यस्ति केन निमित्तेन प्रथमा विभक्तिः ओके विल् कम् बेक् टु दिस् जस्ट् अ मिनिट् सो प्रातिपदिकार्थः न न वदामि पुनः वदामि एकं क्षणं परिमाणाधिक्ये अपि प्रथमा भवति द्रोणो व्रीहिः इत्यत्र द्रोण इत्यनेन परिमाणविशेषः उच्यते तत्र प्रथमा विभक्त्या परिमाणसामान्यम् उच्यते द्रोणरूपं यत् परिमाणं तत् परिच्छिन्नः व्रीहिः इति अर्थः दृष्टः अनन्तरं वचनमात्रे प्रथमा भवति यत्र केवलसङ्ख्या वचनमात्रे प्रथमा विल् अप्लै ओन्लि वेन् दर् इस् वेन् द प्रातिपदिका इट्सेल्फ् इण्डिकेट्स् अ नम्बर् आल् वर्ड्स् विल् हाव् वचन दे विल् हाव् एकवचन द्विवचन बहुवचन किन्तु येषां शब्दानाम् अथवा ये शब्दाः सङ्ख्यावाचकाः दोस् नम्बर्स् विच् give only sankhya, I mean, which mean a sankhya, a number. So, for such words, we have vachana matre prathama. Only four? Any other nimittas for sambodhana? So, for prathama vibhakti? Sorry, I gave away the answer. Sambodhane prathama bhavati. Sambodhanam api prathama vibhakti hai nimittam. So, where we have sambodhana, hey Rama, there also we have prathama. So, we have five Nimittas for Prathama. Whenever you take any word which has Prathama Vibhakti, Vibhakti hi eshu anyatamarthe bhavet. You have to pick one of these as the Nimitta for Prathama. It will be either Pratipadikarthamatre Prathama, Lingadhikke Prathama, Parimanadhikke Prathama, Vachanamatre Prathama, Athava Sambodhane Prathama. Okay? So now, Sarve ityatra, Tasminnarthe Prathama Vibhakti hi iti prashna. We'll come back. किं परिमाणमुच्यते तत्र कति जनाः इति उच्यते वा सर्वे इत्यत्र यु आर् नाट् मेन्शनिङ्ग् द नम्बर् यु आर् जस्ट् सेयिङ्ग् आल् इट् कुड् बि 10, इट् कुड् बि 100, इट् कुड् बि 1000, इट् इस् नाट् अ मेजर् इट्स् वेरि ईजि दट् इस् वै वि आर् डूयिङ्ग् दिस् पुनरावर्तन इस् टु मेक् श्योर् दट् यु केन् अप्लै इट् अण्ड् अण्डर्स्टाण्ड् अवगमनं न भवति इति ज्ञायते चेदेव अवगमनं भवितुमर्हति इफ् यु अण्डर्स्टाण्ड् दट् यु हेव् नाट् अण्डर्स्टुड् देन् यु केन् अण्ड् इफ् ऐ हेव् अण्डर्स्टुड् दट् यु डोण्ट् देन् ओन्लि ऐ केन् टेल् रैट् So otherwise I cannot teach and you cannot learn. Right. So now, how do you decide if you given a word, kasmin arthe prathama vibhakti, iti katham nyatam shakyate. Sambodhanam is very easy. If it is in sambodhanam vibhakti, you know what is sambodhanam. Sambodhanam arthe sambodhane prathama. Vachana matram, if it is a sankhya vachaka, eka, dve, trini, chatvari, pancha, shat, sapta, any of the numbers, tadaiva vachana matre prathama. Vachana matre prathama will not occur in any other case. If it is a sankhya vachaka, sankhya vachakam padam chet, vachana matre prathama. Okay? Here they have given bahavaha. Bahu is also a sankhya vachaka in grammar, because there is a sutra, which I think we have studied sometime back. Bahu gana vatu dati sankhya. The words bahu, gana, vatu and dati are given an artificial sankhya samya. He tells that these are samya. Ata eva bahu shabdasya api vachana matre prathamati uchyate. So ye sankhya vachakaha shabda. Other than that, bahu and gana, any word which indicates a number, tesham eva vachana matre prathama bhavati. For parimana matre prathama, parimana adhikye prathama, it is only for those words which are terms of measurement. You will know that. If it is yojanam, or if it is prasthaha, adhakaha, palam, you have that Balamanorama gave one list of parimana matrakas, and there are a few more. If it is measuring something, if it is measuring weight, measuring distance, or something, then only we have parimana matre prathama. That is all. We will not have in any other cases. So these three things are easy to identify. For normal words, there are only two cases. It will either be pratipadikartha matre prathama or lingadhike prathama. So what you have to see first is what kind of a word. If it is an avyaya, pratipadikartha matre prathama. If it is not an avyaya, you have to find out if the word exists in a single linga or more than one linga. If the word exists in a single linga, yatha pathaha ityasti nitya pullingaha, athava sri ityasti nitya sri lingaha. So if there is a word whose linga is fixed, tada pratipadikartha matre prathama. If the word exists in more than one linga, sarvaha, sarva, sarvam, balaha, bala, simhaha, simhi, so on. Any word which exists in more than one linga, lingadhikye prathama. That is all. It's very simple. For normal words, it's only two options. Pratipadikartha matre va, lingadhikye va. Yadi niyata linga shabdaha, athava avyayam, pratipadikartha matre prathama. Yadi aniyata linga shabdaha, that which exists in more than one linga, lingadhikye prathama. That is all. Right? So now, if we do a few exercises, you will understand better. So anybody, the exercises which I gave yesterday. So we have a few sentences with words underlined. Balaha gachyati kasmin arthe prathama. What is the nimitta for prathama bhakti here? You just apply what we discussed just now and it will be very easy. Lingadhike prathama. Why? Balaha bala. Iti pulinge api bhavati, strilinge api bhavati. Yatra shabdasya lingam na niyatam, tatra lingadhike prathama. Arthat kaha arthaha, prathama vibhaktya pratipadikarthaha uchyate, tena saha lingam api, pullingartha api uchyate, ityarthaha. Lingadhikye prathama vibhakti. Radha nrityati. So what, how will we have? Say maybe each one should take one and answer. Okay. So pratiparikartha matre prathama. Correct. Why? Radha is a nitya strilinga. It is a woman. It is a nitya strilinga and therefore we will have pratiparikartha matre prathama. Tvaya pathaha pathyate. Somebody else would like to try? Pratipadikartha matre prathama. Why? Pathaha nitya pullingaha. So since Radha was Nitya Strilinga, Patha is Nitya Pullinga. Any linga, if it is Nitya, then it will be Pratipadikartha Matre Prathama. ఓకే. అత్ర ఫలం సువర్ణం విద్యతే, కహ అర్థః దేర్ ఇస్ గోల్డ్ ఆఫ్ ద వెయిట్ ఆఫ్ వన్ ఫల. సో ఫల ఇస్ వన్ ఆఫ్ ద థింగ్స్ లైక్ వి మెజర్ ఇన్ గ్రామ్స్ టుడే. సో ఇన్ దోస్ డేస్ ఇట్ వాస్ బీయింగ్ మెజర్డ్ ఇన్ ఫల. సో ఫలం ఇది పరిమాణవాచకం. సో పరిమాణవాచకస్య పరిమాణాధిక్యే ప్రథమ. సో యూ జస్ట్ నో ద మీనింగ్ విత్ ఫ్రమ్ ద మీనింగ్ ఆఫ్ ద వర్డ్ యూ కెన్ మేక్ అవుట్ సిన్స్ ఇట్ టెల్స్ ఆఫ్ ఎ మెజర్ పరిమాణాధిక్యే ప్రథమ. సువర్ణం ఇత్యతు ప్రాతిపదికార్థ మాత్రే. సువర్ణ ఇస్ నిత్య పుల్లింగ, సారీ నిత్య నపుంసకలింగ, దెర్ఫోర్ ప్రాతిపదికార్థ మాత్రే ప్రథమ. ఏకః స్థూలః గజః ఆసీత్. దేర్ ఆర్ త్రీ వర్డ్స్ ఇన్ ప్రథమాభక్తి. ఏకః స్థూలః గజః. ఏకః ఇత్యత్ర కథం ప్రథమాభక్తి, కస్మిన్ అర్థే? సత్యం, సంఖ్యామాత్రే అథవా వచనమాత్రే ప్రథమ. యతోహి సంఖ్యావాచక, ఇట్ ఇస్ ద వన్ విచ్ ఇండికేట్స్ అ నంబర్. సో యత్ర సంఖ్యావాచక శబ్ద తత్ర వచనమాత్రే ప్రథమ. అనంతరం స్థూల, స్థూల ఇస్ నాట్ అ పరిమాణ. సి, యూ టు అండర్స్టాండ్ వాట్ ఇస్ ద పరిమాణ. పరిమాణ ఇస్ అ మెజర్ ఆఫ్ సంథింగ్. ఇఫ్ ఐ ఆమ్ సేయింగ్ ఎ ఫలం సువర్ణం, దట్ ఫల ఇస్ డెఫినెట్. యూ ఆర్ సేయింగ్ అ మెజర్ ఆఫ్ సువర్ణ, ఇట్ ఇస్ అ డెఫినెట్ మెజర్. వెన్ యూ ఆర్ సేయింగ్ స్థూల, ఇట్ ఇస్ జస్ట్ ఫ్యాట్. వెదర్ ఐ మీన్ యూ ఆర్ నాట్ మెజరింగ్ హౌ ఫ్యాట్ ద ఎలిఫెంట్ ఈస్. ఓకే, సో ఇఫ్ యూ కెన్ సే మెజర్ ద విడ్త్ ఆఫ్ ఇట్స్ వెయిట్ అండ్ సే దిస్ ఇస్ ద మెజర్మెంట్, తదా తు పరిమాణం భవతి. యూ షుడ్ అండర్స్టాండ్ వాట్ ఇస్ పరిమాణ. పరిమాణ ఇస్ నాట్ జస్ట్ విచ్ రెఫర్స్ టు సంథింగ్ విచ్ ఇస్ బిగ్ ఆర్ స్మాల్. It has to define a definite measurement. Say if you say it has a waistline of 100 inches, then you are saying it is parimana. But if you are just saying it is fat, it is not parimana because you are not measuring anything. You are just saying it is fat or thin or whatever. Okay? Now, pratiparikartha matre prathamava. Any other options for me to choose from? So we have decided it is not parimana matre prathama. It is not vachana because it is not a number. So we are deciding it is pratiparikartha matre. Lingadhikye. Because sthula can mean any linga. Sthulaha, sthula, sthulam. It is a visheshana. So it has to be lingadhikye prathama. Gajaha. గజ శబ్దాత్ కస్మిన్ అర్థే ప్రథమ. ఇట్ ఇస్ ద సేమ్ అగైన్, ఇట్ ఇస్ నాట్ ఎ ఫిక్స్డ్ లింగ బికాస్ గజ గజి ఇది పుల్లింగే స్త్రీలింగే అపి భవతి. తస్మాత్ లింగాధిక్యే ప్రథమ. స్థూల గజ ఇత్యత్ర లింగాధిక్యే, ఏకః ఇత్యత్ర తు ప్రాతిపదికార్థ మాత్రే ప్రథమ. క్షమ్యతాం, వచన మాత్రే ప్రథమ. రామః మహావీరః. రామః రామ శబ్దాత్ కస్మిన్ అర్థే ప్రథమ. ప్రాతిపదికార్థే అస్తు వై వచనమాత్రే వసుధ. Still not clear. Vasudha. Vachana matre iti kim artham? Sarveshu shabdeshu vachanam bhavati. Maya kim uktam? Vachana matre prathama kada bhavati? Yatra sankhyavachaka shabdaha. When the word indicates a number. Because all words will have vachana. Any word, whether you take eka, stulaha, gajaha, palam, suvarnam, sarvatra vachanam bhavati. ప్రథమావిభక్త్యా వచనబోధః సర్వత్ర క్రియతే. యత్ర తు వచనమతిరిచ్య అన్యత్ కిమపి నాస్తి తత్రైవ వచనమాత్రే. అతేవ మాత్ర శబ్దః ఉపయుజ్యతే. వేర్ దర్ ఇస్ ఓన్లీ వచన, దట్ ఇస్ ఓన్లీ నంబర్ అండ్ నథింగ్ ఎల్స్, దెన్ ఓన్లీ వి హావ్ వచనమాత్ర. In all these cases, there is something, there is Rama other than the Vachana. So we cannot say it is Vachana Matre. It is Pratipadikartha Matre Prathama. Okay, is that concept clear? Yes. So Ramaha ityatra Pratipadikartha Matre Prathama. Because Rama is a Nitya Pullinga. Okay. So when you are referring to the person, okay, if you are referring it to as a visheshana, say Ramaha Rama, Ramayati iti Ramaha, athava Ramante iti, if you are making it a visheshana, then it could be in more than one linga, but as the name, just like we saw Krishnaha iti saha purushaha uchyate, tathaiva Ramaha ityatra Sri Ramaha iti vivakshitaha, tada pratipadikartha matre prathama, okay, Mahaviraha, mayaima uttam, lingadhikke, viraha vira, it is visheshana, all visheshanas, लिंगाधिक्ये एव भवति यतोहि विशेषणानि प्रायेण त्रिषु लिंगेषु भवन्ति राजन् चिरं जीव राजन् राजन् इत्यत्र प्रथमा विभक्तिः राजन इत्यस्य संबोधन ऐ डिड नॉट इंक्लूड द हे पर्पसफुली बिकॉज इट इज नोटेड राजा इति प्रथमा एकवचनम राजन इति संबोधनम संबोधनत्वात् संबोधने प्रथमा विभक्तिः चिरम चिरम इत्यत्र प्रातिपदिकार्थमात्रे किमर्थम It is not an Nitya Napumsaka Linga. It's an Avyaya. Chiram iti Avyaya. Avyayatvat Pratiparikartha Matre Prathama. Rajan ityatra Sambodhane Prathama. Chiram ityatra Pratiparikartha Matre Prathama. And that's it, right? Okay. Any questions about Prathama Bhakti? Have you understood now? How to apply it, what you've understood to this. Any questions? Any? You can ask anything, I mean, even if it seems so. So now, let us move on to Dvitiya Vibhakti. Prathama Vibhakti Prakarane Sutra Dvayam Eva Asti. Prathama Vibhakti Vastataha Saralam. Ito hi tatra karakam kimapi nasti. Kevalam Vibhakti hi eva. Vibhakti Vidhayakam Sutra Dvayam. Pratiparikartha Linga Parimana Vachane Matre Prathama Sambodhane Cha Iti. Teshu Nimitteshu Prathama Vibhakti hi Bhavati. Yanim Dvitiya Vibhakti hi. Dvitiya Vibhakti Prakarane Kim Kim Asti. Iti ched Adau Karma Karakam Uchyate. यतो हि कारकम् as we saw विभक्ति निमित्तानि पञ्चधा भवितुम् अर्हन्ति कारकम् उपपदम् कर्मप्रवचनीयाः प्रातिपदिकार्थादयः सम्बन्धः तत्र द्वितीया विभक्तेः कारकम् निमित्तम् अस्ति कर्मकारकम् अतः आदौ कर्मकारकम् नाम किम् इति उच्यते कर्मकारकम् इत्यत्र कर्म इति काचन संज्ञा सो कर्मसंज्ञा उच्यते अनभिहिताधिकारः अस्ति अनीप्सितकर्म कर्म बहु वैविध्यम् अस्ति तत्र अनीप्सितकर्म अकथितकर्म अकर्मकधातूनां कर्म निजन्तप्रयोगे कर्म आधारस्य कर्मत्वम् इति बहुधा कर्मसंज्ञायाः एव विवरणम् आदौ दृश्यते सो द फर्स्ट् पार्ट् आफ् दिस् विल् इन्वाल्व् द आक्चुवल् कारक कर्मकारक इन् डिफरेण्ट् काण्टेक्स्ट् वेर् आल् डु वि हाव् द कर्मसंज्ञा एण्ड् हौ डस् इट् अफेक्ट् द प्रयोग So, and based on that karma, we have dvitiya vibhakti. Karmani dvitiya itinena, yatra karma karakam asti, yatra dvitiya vibhakti. Karma karakasya dvitiya vibhakti hi bhavati. Takaha upapada dvitiya. Keshantana shabdanam yoge. Yatha paritaha, krishnam paritaha. Krishnam ubhaya, margam ubhayataha. Ityadi, keshansit padanam yoge dvitiya vibhakti hi uchyate. Yatha upapada dvitiya. कर्म प्रवचनीयाः पुनः अत्र कर्म प्रवचनीयाः इति संज्ञा सो के कर्म प्रवचनीयाः तेषां योगे का विभक्तिः इत्यादि अपि अस्मिन् प्रकरणे एव भवति सो द द्वितीया विभक्ति प्रकरण विल् कवर् आल् दीस् फस्ट् पार्ट् इस् द कारक विभक्ति then Upapada Vibhakti, and then as a subdivision of it, we have Karma Pravartaniya Vibhakti. So the first thing we will study is Karaka, Karma Karaka. So before that, we know the Karakadhikara. So Karake iti Sutram, iti Adhikratya, Adhikara Sutram. So from here, Idam Sutram, Prathamadhyayasya, Sarvarthapadasya, Trayovimshatitamam Sutram. So ita arabhya tatprayojako hetushcha asyaiva padasya panchapanchashat sutra paryantam panchapanchashattama sutra paryantam karakadhikarah. So from 1423 to 1455 Panini defines all karakas. Sarvepi sarvanyapi karakani atra uktani. So ityadhikritya iti vyakshyane. Samyaha vakshyante iti shesha. So karaka is also a samnya. So within that we have several karaka samnyas. We have karma, karana, etc. So karake ityadhikritya samyaha vakshyante. Kriya janakam karakam karoti kriyam nirvartayati iti bhashye vyutpatti darshana. So what is a karaka? Kriya janakam, that which generates some action, is called karaka. Why? Karoti. Karaka shabdasya ka vyutpatti hi karoti iti karakam. Karoti nama kriyam nirvartayati, that which makes an action to take place is a karaka. Iti bhashye vyutpatti darshana. Brahmanasya putram pasyati ityatra brahmanasya anyatha siddhatvam na karakatvam. So brahmanasya putram pasyati. So putram pasyati, putra shabdasya karakatvam asti, brahmanasya ityasya tu karakatvam nasti. We saw in the first class, it is a sambandha, tatra sakshat kriyaya anvayaha nasti. Putram pasyati itya anvayaha. Brahmanasya putrova, mahilayaha putrova, anyatkimapiva. Tatra sakshat kriyayam sambandha nasti, ataha karakatvam api nasti. So karaka adhikara starts, and within that adhikara we have karturipsitatamam karma. Kartuhu. How do we know where the karaka dominates? Always adhikara, it is indicated, only the beginning is indicated. The ending is always known by vyakhyana. Or sometimes from the meaning of the sutra you will know. Because, I mean, here what is happening is, we have the karakadhikara, it ends with tatprayojako hetushcha, as I said. And the next sutra says, pragrishwaran nipataha. So, I say, different adhikara begins here. Saying there is nipata adhikara from the next sutra till adhirishvare. So, there we know the karaka adhikara ends and the nipata adhikara begins. So, if you know the ashtadhyayi, you will understand it. Sometimes it is not clear, we have to know from the vyakhyana, commentary. So now, kartur-ipsitatamam karma. Trini padani santi sutra, kartuhu-ipsitatamam karma. Samnya sutram, karma samnya vidhiyate. It is a samnya, karma, it is called karma, it is also called a karaka. Karake ityadhikaraha. Prathama vibhaktya viparinamyate. So kartuhu kriyaya aptum ishtatamam karakam karma samyam syat. So karake, as I said, from 1423 to 1455. This is 1449. So the next adhikara sutra is there in the ashtadhyayi. If you look at the ashtadhyayi, you will know. 1456 is prangrishwanan nipataha. But that need not be always there. I mean, always it is not that there is another adhikara beginning when this ends. It may just end abruptly. So, kim ucchate? Karma nama kim? Kartuhu kriyaya aptum ishtatamam karakam karma samyam syat. Kartuhu, for the karta, for the subject. Kriyaya, subject is doing some action. Karta kriyam karoti. Te taya kriyaya kim aptum ichchati? What does he want to obtain? Ishtatamam, that which is the most desired object of his action, is called karma. So the most desired object of the action of a subject, of a doer, is called karma. Okay. So karta nama kaha. Because karta is again a samnya, which Panini will state, svatantra karta iti agre asti asmabhihi topi nadhitam. So kaha karta? Dhatu upata vyapara shreya karta. We also always know dhatvartha kaha. What is the meaning of a dhatu? We studied this in the first class, Pitika. Dhatvartha kaha. What are the meanings which are conveyed by a dhatu? Dhatvartha ke. Actually, it is not a single meaning. So, what are the meanings which are conveyed by a dhatu? So, kriya, vyapara and phala. Are there three things? Kriya, vyapara and phala. Kriya vyapara or just vyapara. Vyapara is a synonym of kriya. Kriya and vyapara mean the same, which is the action, and phala, the fruit of that action. And it's a direct translation. What is the achieved by the action? For example, if you have pachati, viklitti anukulaha vyaparaha. Viklitti, that is the state of being cooked, is the phala, and all actions which lead to that. So there might be multiple things. So, to cook something, a karta has to do a lot of things. He has to say, take a vessel, he has to put something in it, he has to light the fire, he has to wait, he probably has to stir, and so on. So, there is a set of actions which have to be done to achieve the objective. Okay, so, all that together is covered by the term vyapara. So, vyaparam, vyaparaha, phalancha dhatvartha, tatra. Dhatu upata vyaparashraya karta. So, the ashraya for the vyapara is karta. So, the person in whom that vyapara, the action is residing, is called karta. So, pachakaha pachati ityukte, te sarve vyaparaha santi, te pachakena kriyante. So, mata pachati. So, whoever the ashraya for that vyapara, dhatuna upataha yaha vyaparaha, tasya vyaparasya ashraya karta. So, tena kartra, kriyaya, svakriyaya vyaparena, aptum ishtatamam karakam. So, kartru vyapara, kartuhu yaha vyaparaha, the action of the karta, prayojya, resulting from that. So, the resultant of the action of the karta. So, what is the resultant of the vyapara? It is the phala. It is what results. It's cooking. So, if he is doing all these actions, if he is taking a vessel, putting rice in it, and then putting some water, lighting the fire, and cooking it for a specified time, what will happen? The rice will get cooked. Viklitihi phalam. So, phalashrayaha karma. So, what is the ashraya for that vikliti? Where do we find the vikliti? We find the vikliti in the rice, tandula. Pachakaha tandulan pachati. Tandulaha phalasya nama viklitteha ashrayaha. So vyaparasya ashrayaha karta pachakaha. Viklitteha ashrayaha. Where do we find the vikliti? It is not found in the cook. It is found in the rice. Ataha tasya ashrayaha karma. So tandula is called karma. That is why we say pachakaha tandulan pachati. Pachakaha karta, tandulaha karma, paka kriya. Okay. So, saha artha. So, these are all technical terms which we should know as it is. I mean, it is very precisely defined. You should understand how it is defined, but you cannot change these things. I mean, there are some things which you have to remember as it is because there are very precise definitions. Okay, you can just say, generally you can say something, but a precise definition will be this. Kartru vyapara prayojya phalashrayaha. There are five words which I think you have understood. Kartru, who is the karta? The person who is doing the vyapara. So, vyapara is the action. So, kartru vyapara prayojya. Prayojya is resulting from that action. Phala is what is the resultant. The objective of the action is viklitti. So, tasya ashrayaha. So, the substratum for that viklitti is karma, and that is tandula in this case. So, kaha artha punaha kartra by the svanishtha vyapara prayojya phalena. So Svanishtha within himself, the vyapara, the action which is within himself, tena prayojya, the result and phala, the objective, tena sambadhum. So what does he want to associate with that phala? That is vikliti. If he wants to cook rice, it will be tandula. If he wants to cook vegetables, it will be shakan pachati. If he wants to cook something else, supaha supam patati. So it depends on the karta. So what does he want the phala to be associated with? The phala of his vyapara. If he is doing cooking, the phala will be the cooked state. So what is the object that he wants to be cooked? Is it tandula? Is it shaka? Is it phala? Is it something else? So that object will be karma. So it depends on the karta. What does he want to cook? Okay, whether he wants, I mean, whether he is, but what is it that he wants to cook? So, that is what is told in the Vyakhyana. Is this much clear? So, before we go to Vyakhyana, because if we go to Vyakhyana, it is the same thing, but he states in a slightly different way. So, kartuhu kriyaya ityadi. So, kartuhu kriyaya ityadi, na, where he says, prakrityopatam vartamanatam na vivakshitam, it is dependent on the ipsita. The word ipsita, tatra vartamanakale kta pratyaha, but the vartamanakala is not really intended. It need not be in vartamana, the vyapara, anywhere, whether it is a past action, present or future. So, tena katam karoti kritavan ityado na avyaptihi. Aptihi sambandhaha evamcha kartra Svanishtha vyapara prayojya phalena sambandhum ishyamanam. That is what he is saying. Kartra svanishtha vyapara prayojya phalena sambandhum ishyamanam. Yatha tandulan pachati. Ityatra viklityanukula vyaparaha pacherarthaha. Pachadhatoho kahartaha viklityanukulaha vyaparaha. Taptodaka prasvedana krita prashithilavayava. Prashithila avayavakatvatmakam mrudu vishadatvam viklittihi. So he defines what is viklitti. What do we call as viklitti? Cooking. He says mrudu vishadatvam. So that by which it becomes soft and vishada, expanded. So that is the effect of cooking. Mrudu vishadatvam. Kimartham taptodaka prasvedana krita. What is it caused by? Tapta udaka. So boiled water. Tasya prasvedana. By that seeping inside. Krita. So by it. Prashithila avayavakatvam. So the avayavas of that object which is being cooked becomes shithila. They become loosened and because of that it becomes soft and it becomes expanded. That is vikliti. So this is how, I mean this is the extent to which our shastras have gone to what exactly is everything. The definition. I mean, we say it is cooking, but what exactly is cooking? So this is what he says is cooking. Which is true. Whatever you see, you cook, you find. So, pachati ityasya sahartha. Viklittihi namakahartha. Taptodaka prasvedana krita prashithila avayavakatvatmakam mrudu vishadatvam viklittihi. You don't have to remember all these, but you have to be able to appreciate how they have defined it. What you have to remember is that kartra vyapara prayoja phanashraya karma. This should be known. Okay, now. So, we know what is viklitti. Tadanukula vyaparaha. So, what is the action which enables something to be cooked? Adhishrayana udakasechana edhopakarshana prajvalanadi rupaha. So, he says adhishrayana, to put the matter to be cooked in a vessel. To put it on the stove or on the chulli. Tapto adhishrayana udakasechana, you have to sprinkle water or put enough water for it to be cooked. Edhopakarshana, you have to bring in the fuel. Prajvalana, you have to light the fire. So all these are sub actions which are involved in the action of cooking. Okay? Cooking is not one single action. It is a combination of all these. So all this together is called a vyapara. Okay. So iti karake iti sutre bhashye spashtam. So all this has been discussed in the bhashya. So now what do we have? Tandulan pachati. Vikrityanukulaha vyaparaha pachidhato rasthaha. Atayeva phala vyaparayor dhatuku iti siddhantaha. We saw the phala and vyapara are both given by the dhatu. Tathata tandulan adhishrayanadi vyaparena vikledayati ityarthaha.
तण्डुलान् पचति इत्यत्र कः अर्थः तण्डुलान् रैस् अधिश्रयणादि व्यापारेण विद् द हेल्प् आफ् एक्शन् लैक् पुटिङ्ग् इट् इन् अ वेसल् पुटिङ्ग् वाटर् लैटिङ्ग् फैर् एट्सेट्रा विक्लेदयति हि मेक्स् देम् टु बि कुक्ड् अधिश्रयणादिरूप कर्तृव्यापार प्रयोज्य विक्लित्तिरूप फलाश्रयत्वात् तण्डुलानां कर्मत्वम् सो यु हाव् अधिश्रयणादिरूप कर्तृव्यापार द एक्शन् आफ् द कर्ता इट् स्टार्ट्स् फ्रम् अधिश्रयण उदकासेचन एधोपकर्षण प्रज्वलन एट्सेट्रा सो अधिश्रयणादिरूप कर्तृव्यापार प्रयोज्य सो रिसल्टिङ्ग् फ्रम् दट् विक्लित्ति रूप फल वाट् इस् रिसल्टिङ्ग् द फल इस् विक्लित्ति बीङ्ग् कुक् सो तस्य आश्रयः सो बीङ्ग् द आश्रय फार् दट् तण्डुलानां कर्मत्वम् सो दट् इस् वै वि काल् तण्डुला एस् द कर्म दिस् इस् हौ द कर्म हेस् बीन् डिफैन्ड् टेक्निकलि ओके सो यु नो ऐ मीन् यु केन् सी नौ द डिफरेन्स् बिट्वीन् वाट् इस् द शास्त्र अण्ड् हौ वि नो इट् नार्मलि इफ् यु आर् जनरलि सेयिङ्ग् किम् इति पृच्छतु तस्य उत्तरं कर्म इति सत्यं बट् द अमौण्ट् आफ् थिङ्ग् बिहैण्ड् एव्रिथिङ्ग् इन् कारक प्रकरण इस् वेरि वेरि प्रिसैस् अण्ड् वेरि extensive okay extensive thought has gone into everything in the karaka prakarana okay so it might be difficult to comprehend in the initial stages but this is the core of vyakarana okay of the shastra or how to think or what they have thought and to the extent to which they have defined things is well, amazing there is no other word for that पाचकः तण्डुलान् पचति द सेम् थिङ्ग् ऐ एम् रिपीटिङ्ग् इट् इन् त्री डिफरेण्ट् कैण्ड् सो दट् यु अण्डर्स्टाण्ड् इन् अट् लीस्ट् वन् स्टेज् सो पचधातोः कः अर्थः विक्लित्यनुकूलः व्यापारः सो तादृशव्यापाराश्रयः सो हू इस् डूयिङ्ग् दट् एक्शन् इट् इस् पाचकः सो पाचक इस् द कर्ता कर्तृनिष्ठः व्यापारः सो वाट् इस् द कर्ता नाम पाचकः पाचकनिष्ठः व्यापारः नाम अधिश्रयणादि विक्लित्यनुकूलः व्यापारः तेन जन्यं फलम् सो द फल विच् इस् रिसल्टिङ्ग् फ्रोम् दट् इस् विक्लित्ति द स्टेट् आफ् बीङ्ग् कुक्ड् विक्लित्तेः आश्रयः सो वाट् इस् कुक्ड् वेर् डु वि फैण्ड् दट् विक्लित्ति वि फैण्ड् इट् इन् द रैस् तण्डुला अतः तण्डुलानां कर्मत्वम् सो वन्स् वि हाव् सो पाचकेन द सेकेण्ड् थिङ्ग् वि हाव् कर्ता नाम पाचकेन स्वक्रियया नाम पाकक्रियया आप्तुं सम्बन्धम् इष्टतमं कारकं नाम तण्डुलाः कर्मसमयं स्यात् सो वाट् डस् हि वाण्ट् टु असोसियेट् हिस् व्यापार वित् इस् तण्डुला हि कुड् हाव् कुक्ड् सो मेनि थिङ्ग् बट् एट् दिस् मोमेण्ट् हि वाण्ट्स् टु कुक् रैस् अत एव तण्डुलानां कर्मसमय ओके एनि क्वश्चन् डिड् यु अण्डर्स्टाण्ड् वाट् इस् कर्म कर्तुरीप्सिततमं कर्म You can do this for anything. Say, okay, phalam khadati. So, khadati. What is the vyapara? So, vyapara which assists galabila sanyoga anukulaha vyapara. Something to be taken into your, galabila is into your throat is called khadana. Okay. So, the one who is doing it is the karta. Say, balaha. So, he is the karta. So, what is the phala is something which goes inside your mouth. So, what is it? Tasya ashrayaha phalam. Phalam here, I am referring to a fruit. Okay, he eats a fruit. So, ataha phalam karma, balaha phalam khadati and so on. You can do it for any kriya, you can do this samanvaya. So, now, once you have understood the sutra, there is a bit of dalakritya involved. Kartuhu kim? This is prashnaha. कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् इति उच्यते कर्तुः इति किमर्थम् उच्यते क्रियया आप्तुम् इष्टतमं दट् विच् इस् मोस्ट् डिसैर्ड् इस् कर्म इति उच्यताम् मोस्ट् डिसैर्ड् फार् द कर्ता इति किमर्थम् उच्यते इति प्रश्नः माशेषु अश्वं बध्नाति इति प्रत्युदाहरणं दत्तम् सो माषाणां कर्मवारणार्थं कर्तृग्रहणं माशेषु अश्वं बध्नाति इति प्रयोगः कः अर्थः माष इस् दट् पर्टिक्युलर् थिङ्ग् वाट् वि काल् द उरद् दाल् इस् माष ओके उडुतं परुप् इफ् यु सेयिङ्ग् इन् तमिळ् आर् उद्दिनबेळे दट् दाल् उरद् दाल् द वैट् दाल् इस् माष
Masha is the favorite of horses. That is, horses like to eat Masha once if they get access, black gram. Okay, probably that's a word. So now, but the Ashwa, if it eats too much of black gram, it gets stomachache. Okay, it is in small amounts, it will not do any harm, but in great quantities, it will harm the horse. But the horse does not know when to stop. If it gains access, it will keep eating. So what does the karta do here? Kashchit ashvapalakaha mashesho ashvam badnati. So there is a field of black gram. So he is tying up the horse to prevent the horse from eating the black gram. Now, if you just say ipsitatamam karma, he is saying kartuhu ipsitatamam karma. Just say ipsitatamam karma, that which is most desired. Now, karmanaha ipsitaha mashaha. The horse would most desire to eat masha. Okay. But the for the karta, ipsitatama is the ashva. He wants his horse to be safe. Okay. That is why he ties it up. Okay. So, karmanaha ipsitaha mashaha. If you do not say kartuhu ipsitatamam karma, then here, even masha would get karma samya. Because it is ipsitatama for the ashva. Okay. So, to avoid that, he says, kartuhu ipsitatamam karma. What does the karta want? So, his bandhana kriya, he wants to associate the ashva and not the masha. For him, masha is just an adhara. Therefore, mashesho ashvam badnati ityatra mashanam karmatva nivaranartham kartru grahanam. Karmanaha ipsitaha mashaha natu kartuhu. Right? So, kartu kim iti vyakhyane. Nanu kartrigrahanam vyartham. The previous line to that pratika, he says, nanu kartrigrahanam vyartham. Nacha vyapara labhaya tat iti vachyam. Kena aptum ityakanshayam karakadhikara deva tallabha. So there is karakadhikara, which means there is karaka, karoti, nama vyaparaha asti. So vyaparena aptum ishtatamam karma ityevastu kartuhu iti kimartham iti prashnaha. Kartuh kim iti. Masheshu ashvam badhati. Masheshu bhakshanaya pravrutyun mukham udaravyatha bhayat tadbhakshanat nivartaitum anyatra badhnati ityarthaha. Vakyasya kaha arthaha masheshu, that is among gram, bhakshanaya pravrutyun mukham, that which has set out to eat that gram, udaravyatha bhayat, fearing that it will get a stomach ache, tadbhakshanat nivartaitum, to prevent it from eating that gram, anyatra badhnati, he ties it up elsewhere. Atra mashanam karmatva nivrityartham kartrigrahanam. So to prevent masha from getting karma sanya, we have grahanam. Kartrigrahane krute tu na ukta doshaha. Vai karmanaha ipsitaha mashaha natu kartuhu. Bandhana karmi bhutasya. For the bandhana kriya, that is the what is bandhana kriya? It is the action which facilitates the prevention of movement of something. Okay, la? So, gamana nirodhanukulaha vyaparaha bandhadhatoho arthaha. So, tena vyaparena janyam phalam gamana nirodhaha. So, prevention of, that is, it cannot move. Okay. So, prevention of action or movement is what results from it. So, what is being prevented from moving? The ashva. Ataha ashvasya karma samya. Bandhana karmi bhutasya ashvasya iva atra mashaha ipsitaha. Natu bandhana kartuhu, not for the karta, right? Ashvarakshanasya iva tadapekshitatva. He wants the ashva to be protected and he does not want the masha. Okay? So that is kartuhu kim masheshvashvam badhnati. Mashanam karmatva nivaranartham kartagrahanam. So agre uchyate tamap grahanam kim. Ipsita tamam karma iti uchyate kimartham. Payasa odanam bhunkte. इति उदाहरणम् पयसः कर्मत्व निवारणार्थम् ईप्सिततम पदग्रहणम् पयसा ओदनम् भूते हि ईट्स राइस मिक्स्ड विद मिल्क ओके पयो मिश्रितम् ओदनम् भूते इत्यर्थः सो व्हाट इज द थिंग हियर हि इज ईटिंग तमग्रहणम् किम् the Vyakhyana, he explains the situation very well. So, we'll read the Vyakhyana itself. Tamagrahanam shim iti pratike. Tamabantam nama ipsita tamam ityetat kimartham. So, why does he
चेत् कर्तुः उद्देश्यं कर्म इत्येव अस्तु. सो वै आर् सेयिङ्ग् ईप्सित तम दट् विच् ही वाण्ट्स् टु असोसियेट् वित् हिस् दट् थिङ्ग् उद्देश्यं वाट् एवर् ही डिसैर्स् इस् कर्म दट् ईप्सित तम इति किमर्थम् इति प्रश्नः. पयसा ओदनं भुङ्क्ते इति पयसा मिश्रम् इत्यर्थः. यद्यपि अत्र भोक्तुः ओदनः एव पयसा मिश्रः उद्देश्यः. सो वाट् डस् द कर्ता एक्चुलि वाण्ट् हियर्? ही वाण्ट्स् रैस् मिक्स्ड् वित् मिल्क्. न तु केवलं पयः, नापि केवलम् ओदनः. हि डस् केवलः ओदनः. हि डस् नाट् वाण्ट् ओन्ली मिल्क्, हि डस् नाट् वाण्ट् ओन्ली रैस्. He wants rice mixed with milk. Payo mishritam odanam eva uddeshyam. Nahi asau kevala payah paane asushyati, naapi kevala udanena. He will not be pleased just by drinking milk or by eating plain rice. He wants rice mixed with milk. Tathapi yada bhuktavan eva payo lipsaya punar odana bhojane pravartate tadedam pratyudaharanam. He is actually eaten. He has already eaten. Now, payo ripsaya, but he is eating more rice again because he wants that milk. That is, he wants to eat, he likes rice mixed with milk. Okay. So, tatra yadyapi payaha eva uddeshyam bhujikriyam prati, tathapi bhujikriya karmi bhutam odanam prati, mishrana sadhanataya gunatvena eva taduddeshyam, natu bhojyatvena. So, why? What does the Ipsitana give? The Bhujikriya, the Vyapara, he wants to associate it with rice. And as a Visheshana to that rice, to Samskara, we will see that Tritiya Vibhakti, he Samskara Bhavati. Payasa Mishram Odanam. As, I mean, you have rice, it could be mixed with many things. It could be mixed with, say, Kvathitam, Athava Rasaha, Athava Supaha, Athava Payaha Dadhi, Tyadi Samskara Kani to to refine that rice or to mix that rice with, there are many things. Among that he wants payaha, milk, that is rice with milk. Okay? So, gunatvena odanasya tat samskaryataya uddeshyatva, sorry, mishrana sadhanataya gunatvena iva tad uddeshyam. So, the main uddeshya here is odana, and to mix with it, guna is something which is not the pradhana. Okay? Odanam eva pradhanam karma. तत्र विशेषणतया पयसः योगः. सो पयसा ओदनं भुङ्क्ते इत्यत्र. सो हि सेस् ओदनः एव ईप्सिततमः. सो द ईप्सिततम हियर् विल् एक्चुली बी ओदन एण्ड् नाट् द पय. पय इस् आल्सो डिसैर्ड् बट् एस् अ मिक्सिङ्ग् एजेण्ट् वित् द ओदन एण्ड् नाट् डैरेक्ट्ली फार् भक्षण. इफ् हि वाण्ट्स् ओन्ली मिल्क् तदा पयः भुङ्क्ते, हि विल् ईट् आर् हि विल् टेक् इन् partake of milk iti bhavati. If he wants to eat only milk directly, then payaha bhungte ityatra dvitiya vibhaktihi bhavati. Yatra tu tasya ipsita tamam odanam, payasa mishram odanam. Exactly, he does not want to eat plain rice, but the sambandha is rice. The payaha is only the the mishrana sadhana. संस्कारकतया पयः. ओके. सो देयरफॉर हिज एज भोजन इज ईप्सिततम. दट इज वै वाट इज ईप्सिततम क्रियया संबंधम इष्यमाणम. वाट डज ही वांट टू असोसिएट विथ हिज क्रिया इज ओदन. ओदन विच हैज बीन मिक्स्ड विथ मिल्क. ओके. यस विशेषण. आई मीन वी कैन जनरली कॉल इट अ विशेषण. सो विशेष्यम प्रधानम तो अत्र ओदनमेव. नेक्स्ट क्वेश्चन. कर्म इति अनुवृत्तौ पुनः कर्म ग्रहणम् आधार निवृत्त्यर्थम्. सो द प्रीवियस सूत्र, इफ यू लुक एट द अष्टाध्यायी, अष्टाध्यायी डज नॉट गो बाय दिस ऑर्डर. दैट इज कर्म समय इज नॉट द फर्स्ट वन. ही डज ही डिफाइन्स फर्स्ट अपादान संप्रदान एंड देन करण अधिकरण एंड देन ही इज कमिंग टू कर्म. सो द प्रीवियस सूत्र इज अधिशीन स्थासाम कर्म 1446. This is 1449. So, adhishin sthasam karma iti sutrat, atra karma iti anuvartate. Punaha asmin sutre karma grahanam kimartham iti prashnaha. So, the question here is, karma iti anuvartate, karturipsita tamam iti ukte, adhishin sthasam karma ityataha
कर्म इति अनुवर्तते किमर्थं पुनः अत्र कर्मग्रहणं कर्तुरीप्सिततमं कर्म इति पुनः कर्मग्रहणं किमर्थं इति प्रश्नः अन्यथा गेहं प्रविशति इत्यत्रैव स्यात् कः अर्थः अधिशिंसासां कर्म इत्यत्र आधारोधिकरणम् इत्यतः आधारः इत्यपि अनुवर्तते एक्चुअली अधिशिंसासां कर्म इज सेइंग आधार वाट इज दैट इज दिस इज वाई यू हैव टू नो द अष्टाध्यायी अनलेस वी नो द अष्टाध्यायी इट विल नॉट बी क्लियर He is saying Adharaha Adhikaranam. The substratum for action is called Adhikarana. Adhishingsthasam. But when it is Adhi Upasarga followed by Shingstha or As, Tada Adharaha Karma Samyam Syat. Adhi Adhipurvaka Shingstha Asam Adharaha Karma Samyam Syat. The substratum itself will get Karma Samya. Iti Uchyate. सो अभिनिविशश्च तत्रापि तथैव अभिनिविश इत्यस्य आधारः कर्म सम्यक् स्यात् उपान्वध्याङ्गसः उपा अनु अधि आङ् एतत् पूर्वक वसः आधारः कर्म सम्यक् स्यात् सर्वत्र आधारः इत्यत्रापि अनुवर्तते आधारस्य कर्म सम्यक् स्यात् इति उच्यते अत्रापि तदा किं भवति ईप्सिततमः आधारः कर्मसंज्ञं स्यात् इति अत्रापि अर्थः स्यात् इफ् यु डोण्ट् पुट् द कर्म अगेन् कः अर्थः भवति वेर् द ईप्सिततम इस् अ सब्स्ट्राटम् यथा गेहं प्रविशति गृहं गृहम् इस् आल्सो द आश्रय और् आधार सो तत्रैव कर्मसंज्ञा भवति आधारः कर्मसंज्ञं भवति इति वेर् आज़् इन् अदर् केसस् गेहं प्रविशति गेह इस् बोत् आधार एण्ड् कर्म ईप्सिततमत्वात् कर्म बट् इफ् यु हाव् तण्डुलं पचति हरिं भजति हियर तंडुला इज नॉट द आधार फॉर कर्ता और क्रिया सिमिलरली हरि इज नॉट द आधार सो एषु स्थलेषु कर्म संयम न स्यात् इफ ही डज नॉट से कर्म अगेन यदि अनुवृत्ति ही तर्हि किम अनुवर्तते आधारः कर्म इति उभयम अनुवर्तते यत्र आधारः अस्ति तत्रैव कर्मत्वं स्यात् न तु अन्यत्र अतः पुनः कर्म इति उच्यते कर्तुरीप्सिततमं कर्म इति पुनः कर्मग्रहणं आधार निवृत्त्यर्थम् टु प्रिवेंट दट आधार एंड टू से दट वॉट एवर इज ईप्सिततम विल गेट कर्म संज्ञा सो तदेव उच्यते कर्म ग्रहणम आधार इति सो द नेक्स्ट वन द नेक्स्ट सूत्र इज कॉल्ड अनभिहिते सो वी विल सी दिस टुमारो ओके वी हैव सीन व्हाट इज कर्म द फर्स्ट डेफिनेशन ऑफ कर्म अगेन वी विल सी मेनी डेफिनेशंस ऑफ कर्म और मेनी अदर केसेस वेर देर विल बी कर्म किंतु कर्मणः कर्म नाम किम् कर्तुः ईप्सिततमं कर्म कर्तृ व्यापार प्रयोज्य फलाश्रयः कर्तुः यः व्यापारः तेन किं फलं जायते तस्य आश्रयः कर्म इति कर्मणः लक्षणम् एनी क्वेश्चन्स् Samya is akaranta strilinga, but when you are making it as an visheshana to something else, karma samya yasya saha, iti bahuvrihi samase karma samyaha. So karma samya, odanasya karma iti samya bhavati, odanaha karma samyaha, karma samya yasya saha karma samyaha, tam karma samyam. So when you are making it a bahuvrihi samasa, there is rasva. By Gosri or Upasarjanasya, so it becomes Karma Samyaha. But Samya is Akaranta Strilinga. Karma Samya means the term Karma or the Samya called Karma. Whereas Karma Samyaha is the object which has the Samya of Karma. So Karma Samya refers to just the name or the term. Whereas Karma Samyaha refers to the object or something which has that name. Any other question? हेनाक्षरतमाम् नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः मुनित्रयं नमस्कृत्य तदुक्ति परिभाव्य च वैयाकरणसिद्धान्तकौमुदीं विरच्यते